एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः प्रतिनिधि सभायाः सप्तमाधिवेशनम् अद्य प्रारभते राष्ट्रपतिना विद्यादेवी भण्डारिणा प्रतिनिधि सभायाः उपवेशः अद्य अपराह्नस्य चतुर्वादनाय आहूतो वर्तते सर्वोच्च न्यायालयस्य प्रतिनिधि सभायाः पुनस्थापनाय प्रदत्तस्य आदेशस्य अनुसारेण प्रतिनिधि सभायाः अधिवेशनमेतत् उपवेश्यमानमस्ति एतत्पूर्वं नेकपादलाभ्यन्तरे विवादस्य तीव्रीभवनमनु प्रधानमन्त्रिणा केपी शर्मा ओलिना गत पौष मासस्य पञ्चमे दिवसे प्रतिनिधिसभां विघटय्य निर्वाचनम् उद्घुष्टमासीत् नेपाल कम्युनिष्ट पार्टी नेकपादलस्य संसदीय दलस्य ह्यस्तनोपवेशेन अद्य प्रारभमाणस्य प्रतिनिधिसभाया उपवेशस्य प्रभावकारितायै जनमुखितायै च आवश्यक भूमिकां निर्वोढुं निर्णीतं वर्तते बालवाटारवर्तिनि प्रधानमन्त्रीनिवासे उपविष्टेन उपवेशेन संसद उपवेशस्य प्रभावकारिण सम्पादनस्य स्वस्व समस्याया संसदि उत्थापनस्य च विषयेषु विमृष्टमिति नेकपा संसदीय दलस्य प्रमुख सचेतक विशाल भट्टराई अज्ञापयत् संसदि अविश्वास प्रस्तावस्य प्रतिकरणस्य विषये उपवेशे न किमपि विमृष्टमिति च प्रवक्ता भट्टराई ज्ञापितवान् बहुप्रतीक्षितं मेलञ्ची पेयजलायोजनाया भूमिगत सरण्या गतदिने सुन्दरी जलस्थिते प्रशोधन केन्द्रे जलं निपातितं वर्तते प्रधानमन्त्री केपी शर्मा ओली आसन्न 27 किलोमीटरमित दूर्या भूमिगत सरणीत सुन्दरी जले आगतस्य जलस्य सञ्चालनोपकरणं प्रचाल्य सुन्दरी जले जल प्रवाहं शुभारभत कार्यक्रमं सम्बोधयन् प्रधानमन्त्री ओली अवोचत् काष्ठमण्डपवासिनां चिरकालिक स्वप्नः अद्य प्रपूरितः सर्वकारः विकासे पुनः नवीनगत्या अग्रे वर्धितश्च वर्तते असौ आगामिषु कतिचित् दिनेषु काष्ठमण्डपे जल वितरणं भविष्यतीति भासमाण एतदर्थं प्राक्तन नलिकासु सुधारं विधाय कस्यापि दुर्घटनायाः क्षतेश्च निवारणत्वेन जलं वितर्तुम् आयोजनां निरदिशत प्रधानमन्त्री ओली अकथयत् सम्प्रति प्रवहत् जलं फाल्गुनस्य 26 दिवसात् वर्धिष्यते 27 दिवसे शिवरात्रौ वाग्मत्यां स्वच्छ जलेन स्नातुं च शक्यते अपरस्मिन् प्रसंगे प्रधानमन्त्री ओली प्रत्यक्ष पक्षे 16 स्थानेषु लब्ध विजयस्य दलस्य भञ्जकानां जनानां भ्रमं न विश्वस्तुम् अनुरुन्धान जनतया सहयोगेन विकासस्य तीव्ररूपेण अग्रे वर्धापनार्थं प्रतिबद्धताम् अभिव्यनक पेयजल मन्त्री मणिचन्द्र थापा अगदत् तात्कालिक प्रधानमन्त्रिणा कृष्णप्रसाद भट्टराई इत्यस्य कार्यकाले प्रारब्धा मेलञ्ची पेयजला योजना वर्षाणां 22 अनन्तरं इदानीं केपी ओली इत्यस्य कार्यवधौ प्रपूरिता वर्तते असौ आगामिनः चैत्र मासस्य 2 सप्ताहात् पेयजलं वितरिष्यते इति अज्ञापयत् प्रधानमन्त्री केपी शर्मा ओली भाषते नेपालेन द्रुतगत्या विकास विधीयमानो वर्तते संयुक्त राष्ट्रसंघेन नेपालस्य अल्पविकसिता विकासशील राष्ट्रे स्तरोन्नत्यै परामृष्टमस्थिति सन्दर्भमुद्भावयन् प्रधानमन्त्री ओली अभाषता सम्प्रति नेपालेन प्रतिमासं वर्ष परिमाणस्य प्रगति विधीयमाना वर्तते कृषक सूचीकरण राष्ट्रियाभियानं ह्य काष्ठमण्डपे शुभारभमाण प्रधानमन्त्री ओली अवोचत् कृषे आधुनिकीकरणं व्यावसायिकता च वर्तमान आवश्यकता वर्तते प्रधानमन्त्री ओली समृद्धो नेपाल सुखिनो नेपालिनश्चेति राष्ट्रियाकांक्षाया पूरणाय कृष्याशैव स्वास्थ्य शिक्षा प्रभृति क्षेत्राणां च विकास अत्यावश्यको भवति इति अभाषत प्रधानमन्त्री ओली अतर्कयत् कृषिं विना जीवनं परिकल्पितुमपि न शक्यते इत्यतः कृषे सम्मानित व्यवसायस्य रूपेण संस्थापनम् आवश्यकमस्ति कृषि पशुपक्षी विकास मन्त्री पद्मा कुमारी अरियाल कृषक सूचीकरण व्यवस्थापनस्य कार्येण अतः परं वास्तविक कृषकाः लाभम् अवाप्स्यन्ति ततः कृषिक्षेत्रे सम्भाव्यया अधिक प्रगत्या नेपाल न केवलम् आत्मनिर्भरः अपितु निर्यातमूलक देशश्च सम्भविष्यतीति न्यश्चिनोत् नेपाल कम्युनिष्ट पार्टी प्रचण्ड नेपाल समूहस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्ड भाषते समाजवादिनः आन्दोलनस्य अग्रे वर्धापनाय ज्ञानशिल्पैः युक्ता जनशक्तिः आवश्यकी वर्तते पेरिस डाँडा वर्तिने दलस्य केन्द्रीय कार्यालये ह्य आयोजिते दल प्रवेशन कार्यक्रमे अध्यक्ष प्रचण्ड दले प्रवेशनाय आगतेभ्य युवभ्य उचितं दायित्वं प्रदास्यते इति प्रतिबद्धतां व्यक्तवान् अध्यक्ष प्रचण्ड नेत्र विक्रमचन्द समूह आत्मना प्रदर्शिते शान्तिपूर्ण मार्गे एव आगतोऽस्ति सम्प्रति तेषां स्वदले स्वागताय व्याकुलता स्थिति धारणां प्राकटयत कार्यक्रमे अपराध्यक्ष माधव कुमार नेपाल दलस्य नाम्नि निर्वाचन चिन्हे च संघर्षे वर्तमानेऽपि एतद् आत्मभि एव प्राप्स्यते इति अवोचत् नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा आत्मना प्रधानमन्त्रिणः प्रतिस्पर्धायां न स्थितम् अस्ति इति स्पष्टीकरोति विपिस्मृति सामुदायिक चिकित्सालयस्य त्रयोदशीं वार्षिक साधारण सभां ह्यः काष्ठमण्डपे उद्घाटयन् सभापतिः देववा सर्वकारस्य नेतृत्वाय शीघ्रता नास्तीति समस्पष्टयत। कार्यक्रमे नेपाली कांग्रेस दलस्य वरिष्ठ नेता रामचन्द्र पौडेलः नेपाली कांग्रेस दलेन सम्प्रति सर्वकारस्य नेतृत्व ग्रहणस्य अपेक्षयापि वर्तमान राजनैतिक गतिरोधस्य अन्त्याय केन्द्रीभवनीयमित्यत्र बलं प्रादात्। प्रधानमन्त्रिणा केपी शर्मा ओलिना अद्य कोरोना विषाणो विरोधी टीकाकरणं गृह्यते। स्वास्थ्य जनसंख्या मन्त्री हृदयेश त्रिपाठी ह्यः मन्त्रालयेन काष्ठमण्डपे आयोजिते कोविड उनविंशते टीकाकरणाभियान सम्बद्धे अन्तर्क्रिया कार्यक्रमे प्रधानमन्त्रिणा ओलिना अद्य पूर्वाह्नस्य दशवादने टीकाकरणं गृहीत्वा द्वितीय चरणस्य टीकाकरणाभियानं प्रारभ्यते इति अज्ञापयत्। अद्य प्रारभमाणे टीकाकरणाभियाने दश दिनानि यावत् पञ्चषष्टित अधिक वयस्केभ्यः नागरिकेभ्यः टीकाकरणं विधास्यते। एकादश दिवसात् अवशिष्ट दश दिनानि पञ्चाशतः अधिक वयस्केभ्यो नागरिकेभ्यः टीकाकरणं विधास्यते इति मन्त्री त्रिपाठी ज्ञापितवान्। अत्रान्तरे ह्यः आराष्ट्रमतिरिक्तेषु सप्तचत्वारिंशति जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। एवमेव ह्यः आराष्ट्रमतिरिक्ता द्वाषष्टि जनाः कोरोना संक्रमणात् मुक्ता सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितमस्ति। इति समाचारः।